वेदांत विद्यामृतं विदातुं जगद्विषन्तं विबुधप्रजाय तं ज्ञानमोहिन्यवतारमेकं दत्तं भजे सद्गुरु सार्वभौमं जीवं समुद्धर्तुमपत्यरूपं तत्रात्र तेज पृथिवीतनुभ्यां धियापि नोह्यं दययावतीर्णं दत्तं भजे सद्गुरु सार्वभौमं तं पण्डितं मन्ये सहस्रबोधै पथ परिभ्रष्ट नरान् विलोक्य मार्ग प्रबोधाय सदा समेतं दत्तं भजे सद्गुरु सार्वभौमं अध्यात्म विद्या पुरुषार्थ विद्या पयः पयो भेदविदं सुहंसं साक्षात्मेकं परमं हि हंसं दत्तं भजे सद्गुरु सार्वभौमं तं शङ्कराचार्यमपि स्खलन्तं पृच्छन्तमन्तर्निहितात्मतत्त्वे चण्डालरूपेण समेत्य काश्यां दत्तं भजे सद्गुरु सार्वभौमं धनेशणामूललतालमित्र श्रीयन्त्र विद्या परमार्थविज्ञं कुर्वन्तमाप्तं भृगुरामशिष्यं दत्तं भजे सद्गुरु सार्वभौमं सूते जगत्यः सविता सदेवो गायन्तमारक्षति कीर्तिरेषा गायत्र्यपार्थं प्रहरन्तमित्थं दत्तं भजे सद्गुरु सार्वभौमं वैश्वानराज्ञौ जठरे कृतान्नं प्रदाय यज्ञे हवनं हि सत्यम् न लौकिकाग्नीति बोधयन्तं दत्तं भजे सद्गुरु सार्वभौमं त्रिमुखनयन षट्कालोकषट्पादवृन्दैः मधुमुनिजनचेतो भक्तिमास्वादयन्तं भज गुरुमनसूया गर्भशुक्त्यात्तमुक्ता फलमुफलसेवा ज्ञानहारस्तदत्तम्।